गणेशाय नमः। अस्य श्री शनीश्चरस्तोत्रस्य दशरथर्षिः शनीश्चरो देवता तुष्टुप्छन्दः शनीश्चरकृत्यर्थे जपे विनियोगः। दशरथ उवाच कोणोऽन्तकोरो रुद्रयमो दबभ्रु कृष्णशनिपिङ्गलमन्दसौरिः नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्री रविनन्दनाय। सुरासुराखिं पुरुषो रगेन्द्र गन्धर्वविद्याधरपन्नगाश्च पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय। नरा नरेन्द्र पशवो मृगेन्द्र वन्याश्च ये कीटपतङ्गवृन्दाः पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय। देशाश्च दुर्गाणि वनानि यत्र सेनानि वेशा पुरपत्तनानि पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्रीरविनन्दनाय। तिलैर्यवैर्मा शगुडान्नदानै लोहेन नीलाम्बरदानतो वा प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्रीरविनन्दनाय। प्रयागकूले यमुनातटे च सरस्वती पुण्यजले गुहायां यो योगिनां ध्यानगतोऽपि सूक्ष्मः तस्मै नमः श्रीरविनन्दनाय। अन्यप्रदेशा सगृहं प्रविष्ट स्तदीयवारे सनरसुकीश्च गृहाद्गतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनन्दनाय। स्रष्टा स्वयम्भूर्भुवनत्रयस्य त्राता हरीशो हरते पिनाकी एकस्त्रिदारुग्यजिश्याममूर्ति तस्मै नमः श्रीरविनन्दनाय। सन्न्यष्टकम्यप्रयतप्रभाति नित्यं सपुत्रैः पशुबान्धवैश्च पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते। कोणस्थपिङ्गळो बभ्रो कृष्णो रौद्रोऽन्तको यमः सौरीशनीश्चरो मन्द पिप्पलादेन संस्तुतः। एतानि दशनामानि प्रातरुत्थाय यः पठेत् शनीश्चरकृता पीडा न कदाचिद्भविष्यति। हरिः ओम्।